अश्रान्तं परतन्त्रितः पशुपतिः त्वन्मन्दहासाङ्कुरैः श्रीकामाक्षि तदीयवर्णसमतासङ्गेन शङ्कामहे इन्दुं नाकधुनिं च शेखरयते मालां च धत्तेन वैः वैकुण्ठैरवकुण्ठनं च कुरुते धूलीचैर्भास्मनैः श्रीकाञ्चीपुरदेवते मृदुवचः सौरभ्यमुद्रास्पदं प्रौढप्रेमलता नवीनकुसुमं मन्दस्मितं तावकं मन्दं कन्दलतिप्रियस्य वदनालोके समभाषणे श्लक्ष्णे कुड्बलतिप्ररूढपुलके चाश्लेषणे फुल्लति किं त्रैश्रोतसमम्बिके परिणतं श्रोतश्चतुर्थं नवम् पीयूषस्य समस्ततापहरणं किं वा द्वितीयं वपुः किं स्वित्वन्निकटं गतं मधुरिम अभ्यासाय गव्यं पाय श्रीकाञ्चीपुरनायकप्रियतमे मन्दस्मितं तावकं भूषावक्त्रसरोरुहस्य सहजा वाचां सखी शाश्वती नीविभ्रमसन्ततेः पशुपतेः सौधीदृशां पारणाजीवातुर्मदनश्रियशशिरुचेः उच्चाटनी देवता श्रीकामाक्षि गिरामभूमिमयते हासप्रभामञ्जरी सूतिश्वेतिमकन्दलस्य वसतिः शृङ्गारसारश्रियः पूर्तिसूक्तिशरीरसस्य लहरी कारुण्यपाथो निधेः वाटी काचन कौसुमी मधुरिमस्वाराज्यलक्ष्म्यास्तव श्रीकामाक्षि ममास्तु मङ्गलकरी हासप्रभा चातुरी।